किंचित् प्रास्ताविकम्। अथायं छन्दः शास्त्रीय छन्दोमञ्जरी नाम सटीको ग्रन्थः प्रकाशतां नीयते। छन्दोमञ्जरी चेयं छन्दो विषयक ज्ञान संपादनं व्यतिकारे लोकोपकारं कीदृशम् आचरिष्यतीति वक्तुं नावश्यकम्। पठन पाठनादि रूपेण प्रचार एवस्याः सुविशदं लोकोपकारितां आविष्करोति। वित्तरत्नाकर वत्ता दशोपयोगिता प्रसिद्धि भानजनताम अनुपगता अप्यसौ समुचितम्। जिज्ञासूनां छन्दोज्ञानम् आधातुं न किल ततः समधिक न्यूनता पदमाशादयिष्यतीति बलीयान्नो विश्वासः। ग्रन्थे अस्मिन् प्राचीने रूपकल्पिताः षड्व्याख्याः सन्ति। तासु चन्द्रशेखर प्रणीता छन्दोमञ्जरी जीवन नाम्नी च सुप्रसिद्धेति समुल्लिखित अस्ति। हिंदी भाषा ग्रंथ दे संस्कृत साहित्य का संक्षिप्त इतिहास इत्येतन नाम अधेये ग्रंथे। ग्रंथोऽयं स्वस्वरूपेणैव परमोपयोग साधनता प्राप्तोपि विद्यार्थीनां कृते कृतवराभ्यां हरिदत्तशास्त्री शंकरदेवशास्त्री सूरिभ्यां निजनिर्मित संस्कृत हिंदी भाषा ग्रंथित व्याख्याद्वयन सम्भूष्य यथा वद्वौ दशौ कार्य संपादन विधयात्र भूयसीं पुनरूप योगितां मानितः। व्याख्याद्वयचेयं सरलमुचितं विशदं मार्ग मनुसरन्ति स्वाभवत् एवं सौंदर्यं मम नन्दं विन्दते स्म। तथापि ग्रन्थेस्मिन् मुद्रणोचितम् इदानीं संशोधनं कर्तुं प्रवृत्तेन तत्र तत्रावश्यकतानुसारं परिवर्तनादिकं किमपि कर्तव्यम् उचितं। मन्यमानेन चारुतातिरेकं तत्रोत्पादयितुं मया श्रीमज्जयकृष्णदासश्रेष्ठ वरप्रदर्शित प्रसिद्धनामध्येय व्याख्याकार महोदयानुमति सम्प्राप्ति वशात् तद्विषये प्रागाढं प्रयतितं सर्वत्र वृत्तेषु। तत्तद्गणस्वरूप नामधेयानि यथा वधुपरिष्टा दुष्टङ्कय निपुणं संशोध्य च बुद्धिबलेन ग्रन्थरत्नमिदं पुरस्ताद्दद्य विद्यावतां कर्तुं प्रस्तूयते। छन्दोमञ्जरी ग्रन्थकारो गङ्गादास तावद् वैद्यगोपाल दासतः पितुः संतोषायां भातरि प्राप्तजन्मा शीदति मंगलाचरण पद्यादवगम्यते। गोपाल प्रणाम रूपं ग्रंथादौ मंगलं ग्रंथमध्ये प्रदर्शितानि। गोपालचरित संबंधान्युदाहरणानि गोपालवर्णनपरा इतराः कृतयश्च भूयस्तरां वैष्णवी भक्ति मेतदीयां द्योतयन्ति। एतस्य कवेर गंगादासस्य सत्ताकालस्तु निश्चितरूपेण न ज्ञायते। कृष्णम् आचार्य महोदयेन स्वकल्पितेति हासग्रन्थस्य समय ईसवीयाष्टादशशतकोत्तरार्धरूपः पूर्वप्रदर्शितपरम्परानुसारेण स्वीकृतो अस्तीति संस्कृतसाहित्य का संक्षिप्त इतिहास इत्येतन्नामानि ग्रन्थे समुपलभ्यते। ग्रन्थकारेणत्र केवलं कल्पनाकौतूहलस्वरूपम् इति नात्यावश्यकं। प्रस्तारादिकम् अनुक्त्वा व्यवहारिकाणि छन्दांसि लक्षितानि। षोडशसर्गात्मकं महाकाव्यम् अच्युतचरितं नाम कृष्णशतकं सूर्यशतकं चैतरनिमित्तानि विद्यन्ते ग्रन्थान्तराणि। सर्वमिदं ग्रन्थान्तिमपाद्यां स्फुटं प्रतीयते। सुप्रसिद्धिनामधेययोर्धीमतोः प्राज्ञवरटीकाकारयोः परिचयं प्रदातुं तदीयानि कार्यान्तराणि ग्रन्थसमाप्तौ ताभ्यां कल्पितम् उपसंहारपद्यं चेत्येतदेव प्रभूतं पर्याप्तं इत्यत्र विषये तूष्णीक एव तिष्ठामि। अत्र च एतद् ग्रंथ संपादन कर्माणि केनापि रूपेण किमपि यैः साहाय्यं कल्पितं तदीय कृतज्ञताभारं महांत मंतर वोढुं शक्नुवन् बहिरिदानीं पुरः प्रकाशमानीय प्राप्तृनिवृत्तिः संजातोऽस्मि। यथा बुद्धि सावधानं संशोधितोपि ग्रंथ एष क्वचिन् मानुष्यक सुलभानां दोषाणां भाजनं भवेदिति न संभवम्। हंसक्षीरं न्यायेन गुणग्रहिता मात्राश्रयिष्यन्ति। विद्वांसो विद्यार्थिनाञ्चायं स्वभूपकाराय प्रभविष्यतीति दृढं विश्वस्य प्रस्ताविकं लेखमुं समाप्ते पन्थानमुपनयम् इति शिवम्। अनन्तराम शास्त्री वेतालः काशी 28/4/2040।